अथ विजयध्वजाष्टकम् अञ्जनासूनुसान्निध्या द्विजयेन विराजितम् अजितप्रीतिजनकम् भजेऽहम् विजयध्वजम्। श्रीविजयध्वज योगियतीशं नौमि निरन्तरमानमिताङ्गः वादिमदेभविदारणदक्षं व्याकृतभागवतं परमाप्तम्। जयविजयौ दण्डधरौ भूयो भूयोऽभिवादये मूर्ध्ना भगवती टीकायासौ वर्ण्यन्तः प्रवेष्टुमेतस्याः। मध्वाधोक्षज सम्प्रदायकमहाशास्त्रार्थसंव्यञ्जकः श्रीमद्भागवताम्बुधौ व्यवहरन् तात्पर्यरत्नावलीम्। दृष्ट्वा भागवतार्थदीप्तपदकैः श्रीकृष्णपादार्चनम् मात्याक्षी द्विजयध्वजो भजमनस्तं कण्वतीर्थस्थितम्। यस्य वाक्कामधेनुर्नः कामितार्थान् प्रयच्छति भजे महेन्द्रसच्छिष्यं योगीन्द्रं विजयध्वजम्। सर्वदुर्वादिमातङ्गदलने सिंहविक्रमम् वन्दे यतिकुलाग्रण्यं योगीन्द्रं विजयध्वजम्। मध्वाराधितसीतेतरामचन्द्रपदाम्बुजे चञ्चरीकायितं वन्दे योगीन्द्रं विजयध्वजम्। श्रीमद्भागवताभिधानसुरभिर्यट्टीकया वत्सया स्पृष्टाश्लोकपयोधरैर्निजमहाभावं पयः प्रस्नुते। लोके सज्जनतापसंप्रशमनायोदीरितं सूरिभिः श्रीमन्तं विजयध्वजं मुनिवरं तं सन्नमाम्यन्वहम्। इति श्रीविश्वपतितीर्थविरचितं श्रीविजयध्वजाष्टकम्।